द्वितीयोऽध्यायं विनियोगः ॐ माध्यमचरित्रस्य विष्णुर्ऋषि महालक्ष्मीर्देवता उष्णच्छन्दः शाकम्भरीशाक्ति दुर्गाबीजां वायुस्तत्त्वां यजुर्वेदस्वरूपां श्रीमहालक्ष्मीं प्रीत्यर्थं माध्यमचरित्रचापि विनियोगः ध्यानम् अक्षस्रक्फलशृङ्गदिषु कुलिशां पद्मं धनुकुन्दिकां दण्डां शक्तिमसिं च चर्मां जालजं गङ्गां सुराभाजनं शूलां पाशसुदर्शने च ददतीं हस्तके प्रसन्नानां सेवे श्रीरिवं मार्दिनी मिहा महालक्ष्मीं सरोजस्थितम् ॐ ह्रीं ऋषिरुवाच देवासुरामभूद्युतां पूर्णमब्दशतं पुरा महिषेसुरा नाम दीपे देवानां च पुरन्दरे तत्रासुरगीर्महावीर्गीर्देवसैन्यां पराजितम् जित्वा च सकलान् देवान् इन्द्रो भून् महिषासुरः ततः पराजिता देवा पद्मायोनिं प्रजापतिं पुरस्कृत्य गतास्तत्र यत्रैशिखरुद्वद्यजौ यतः वृत्तान्तज्ञोस्तत्त्वान् महिषासुरचेष्टितं त्रिदाशः कथक्यामसुर्देवाभिपविस्तरम् सूर्येन्द्राज्ञा नीलेन्दूनां यमस्य वरुणस्य च अन्येषां चाधिकारान् स स्वयमेवाभितिष्ठति स्वर्गानिराकृताः सर्वे तेन देवाग्ना भुवि विचरन्ति यतः मर्त्या महिषेनाधुरात्मना एतादः कथितं सर्वम् अमरार्विचेष्टितं शरणं वा प्रपन्नास्म बुधस्तस्य विचिन्त्यताम् एतां निशाम्य देवानां पचांसि मधुसूदना चकारकोपां शम्भुश्च प्रकुटीकुटीलाननौ ततोऽतिकोपपूर्णस्य चक्रिणौ वदना तथा निश्चक्राममकातेजो ब्राह्मणाः शङ्करस्य च अन्येषां चैव देवानां शिखरादीनां शरीरतः निर्गतां स महातेजस्तच्चैक्यां समगच्छत अतीव तेजसकूटम् ज्वलन्तमिव पर्वतं तद्विषुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलं तत्र चतिजः सर्वदेवशरीरजम् एकस्तां तद्भूनारी व्याप्तलोकत्रयं पृशा यद्भूचापं तेजस् तेनाजायत तन्मुखं यां येन चापं केशा बाहवो विष्णुतेजसा सोम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चापवत् वारुणेन च जङ्गोरु निस्तम्भस्तेजसा भुवः Brahmanaste jasa pador tadangur yor kate jasa vasunang chakarangalya kuberi nacha nasika jasyastu dantaha sambhuta prajapatin te jasa nayana tritayang jage tataha bhavakate jasa prubocha sandhya yos te jaha shravana vanilasya cha anyesham che padevanam sambhavaste jasang sivam tataha samasta devanam tejo rashi samudbabam tam bilokyamutam prapur amara makishardita shulang shulad vinishkrishya tadauta shikipi nakadrik chakram chadatavan krishna samudpadya svachakrata shankam cha bharana shaktim tadau tashaki hutashana maruto databhans chapam bana purneta te shudhi vajramindraha samupadya kulisha dhamarardipaha tadau tashaki sahasraksho Kanta moi ravatad gajat Kala danda damo dandang Pashang chambu patir dadao Prajapatis chaksham alang Dadao brahma kamandalum Samastaro makupeshu Nijarasmin divakara Kalascha dattavan kargam Tashyascharma cha nirmalam Kshirodascha malangaram Ajare cha tatahambare Churamanin tataha divyam Kundale kattakami cha Ardachandran tataha shubram Keyuran sarvahushu Nuparau imalau tadvad Greveyakam anuttamam Anguliyakaratnani Samasta swanguli shucha Vishwakarma dadao tashaki Parashun chati nirmalam Astranyane karupani Tataha vidyam chadangsanam Amlam na pankajang malam Shiras yurasi chaparam Adada jaladistasi Pankajam chati shobanam Himavan bahanang singham Ratnani vividani cha Dadavasun yagsuraya Panapatrang tandadipa Sishascha sarvanagesho Mahamani bibushitam Nagaharang tadautasya hi Tateha prithivi mimam Anyurapi surake devi Bhushanaki rayudestataha Samanita nadachochahi Shatahasam mahur mahu Chashyana dhina korena Krishna ma puritang napa Amayatati Mahato Pratishabdo Mahanabhut Chukshu Bhaku Sakalaloka Samudrascha Chakampire Chachalapasudachilu Sakalascha Vikidara Jayeti Devascha Muda Tamuchu Singhabakinim Tushtubur Munayaschoinam Bhakti Namrat Mamurtaya Drishtva Samastam Shangshudam Trilokyam Mamararakyam Sagnadaki Lasanyaste Samutashturu Dayuda Akimeta Dikrudodad Abashamakisha Surakam Avyadavata Tang Shabdam Asheshvira Surirvita Sadadarsha Tato Devim Vyapta Loka Twayam Prisham Padagrantya Natabhubam Kiritoli Kitambaram Shobita Sheshapatalam Tajurjpani Svaninatam Disho Puja Sahasrenam Samanta Vyapya Sangstitam Tataha Pravavriteyudam Toya Devya Sirabhisham Shastra Sugir Bhakudamuktugir Adipita Digantaram Mahishasura Sena Nishikshirakyo Mahasuram Yuyude Chamarashchanyaish Chaturanga Balanbita Ratahana Mayutahir Shadbir Udagrakyo Makasura Ayudhya Tayutanancha Sahasrena Mahahanu Panchashadbhischa Niyutahir Asilo Mama Kasara Ayutanang Shatir Shadbir Bashkalo Yudirane Gajavaji Sahasraogir Anekoir Paribarita Vritoratanang Kodyacha Yude Tasmin Nayudyata Midalakyo yutanancha pancha shadbirata yutai yuyude sang yuke tatra ratahanam paribarita anyecha tatra yutasho ratahanaga harirvita Yuyudu Sangyuke Devya Sahatatra Makasura Kotri Kotri Sahasraistu Ratahanam Dantinam Tata Hayanam Chabrito Yude Tratra Boon Mahishasuraha Tomarhi Bindi Palahishcha Shakti bir musalesta taham Yuyudu sangyuke devya Kagri parashu partishai Chichit shakti chipu shakti Kichit spangsta tatapare Devin kargapaharestu Tetangam tum prachakramu Sapi Devi Tatastani Shastranyastrani Chandika Lila Kigiva Prachiteda Nija Shastrastra Varshini Anayastana Nadevi Stuyamana Surashibi Mumochasurateshu Shastranyastrani Cheshwari Sopi Krudo Dutta Sato Devya Mahana Kesari Chachara Sura Senyeshu Panesh Pibakutashana Nishwasan Mumache Yangshya Yudyaman Naranimbika Takiva Sadhya Sambhuta Ganahashata Sahasrasha Yuduste Parashubir Bindi Palasi Patishai Nasayanto Suraganan Devi Shakyu Pabringhita Avadayanta Pattaham Ganaha Sangstata Tapare Mridangascha Tata Hevane Tasmin Yuddha Makotsabe Tato Devi Trishulena Kadaya Shakti Brishtibhi Kagadi Bhishcha Shatasho Nijagana Makasuran Patrayamasa Chevanyan Gangtaswana Bimohitan Asuran Bhuvi Pashenam Padwachanyar Nakarshayat Kichidvidak Ritatiksne Kagapastis Tatapare Pipotita Dipatena Gadaya Bhuvi Serite Vimuscha Kichirudiram Musalena Brishangata Kachini Pati Tabumau Binashulena Bakshasi Nirantarashurogena Krita Kichidra Najire Shenanukarinam Pranan Mumucha Stri Dashardana Keshang Chidbaha Baschinash Chinnash Givas Tatapare Shirang Se Peter Ranyasham Mane Madhye Vidarita Vichina Jangas Tapare Peter Urvyamakasara Ekabakwak Chicharina Kichidevya Dvitakrita Chinepi Chanye Sirasi Potita Punurustita Kabanda Yur Yurdur Devya Grihita Paramayuda Nandristu Chaparitatra Yude Turyalogashrita Kabanda Chinna Sirasa Kagashat Yurishta Ipanakya Tishta Tishte Tibashanto Devi Manye Makasura Patitoi Ratanagashwar Asurishcha Vasundara Agamya Sababatatra Yatra Bhutsa Makaranam Shonitoga Mahanadyaha Sadyastatra Brasu Thruvu Majecha Surasenyashya Varana Suravajinam Sharninata Mahasanyam Asuranam tatambika Ninyekshayam yatahavanis Trinadaru mahachayam Satchasingho mahamadam Utsri jantu tkeshara Shri revyo mararinam Asuni babachinvati Devi aganish chastais tatra Kritang yuta mahasure Yate shang tushtushur deva Pushpa brishti vacho divi Om.